इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। तेलुगु देशम पार्टीति दलस्य प्रमुखः नारा चन्द्रबाबू नायडुः अद्य कृष्णामण्डलस्य केसरपल्ली इत्यत्र आन्ध्रप्रदेशस्य मुख्यमन्त्रित्वेन शपथग्रहणं कृतवान्। प्रधानमन्त्री नरेन्द्रमोदी G7 शिखर सम्मेलने सम्मिलितुं श्वः इटलीं प्रयास्यति। प्रधानमन्त्री नरेन्द्रमोदी विदेशमन्त्री सुब्रह्मण्यम जयशंकरः च कुवैतनगरे दुरापन्ने भीषणे अग्निकाण्डे महद्दुःखं व्यक्तम कुरुताम। अष्टादशतम्याः लोकसभायाः प्रथमसत्रम् अस्य मासस्य चतुर्विंशति दिनांकात् समारप्स्यते। अपि च आईसीसी T20 विश्वचषक प्रतिस्पर्धायाम् अद्य सायं भारतीय दलम् अमेरिका दलं सम्मुखीकरिष्यति। अथ वार्ताः विस्तरेण। तेलुगु देशम पार्टीति दलस्य प्रमुखः नारा चन्द्रबाबू नायडुः अद्य कृष्णामण्डलस्य केसरपल्ली इत्यत्र आन्ध्रप्रदेशस्य मुख्यमन्त्रित्वेन शपथग्रहणं कृतवान्। प्रधानमन्त्री नरेन्द्रमोदी केन्द्रीय गृहमन्त्री अमितशाहः एनडीए दलस्य नेतारः च शपथग्रहण समारोहे उपस्थिताः आसन्। तेलुगु देशम दलस्य प्रमुखः नारा चन्द्रबाबू नायडुः कृष्णामण्डलस्य केसरपल्ली आईटी पार्क इत्यत्र अद्य प्रातः 7:27 राज्यस्य राज्यपालः एस अब्दुल नजीरः आन्ध्रप्रदेशस्य मुख्यमन्त्रीरूपेण शपथग्रहणं कारितवान्। तेनैव सह जनसेनादलस्य त्रयः भारतीय जनता दलस्य एकं च समेत्य 24 नवनिर्वाचित सदस्याः मन्त्रिपरिषदः शपथग्रहणं कृतवन्तः। प्रधानमन्त्री नरेन्द्रमोदी मुख्यातिथिरूपेण कार्यक्रमे उपस्थितः आसीत्। कार्यक्रमे उपस्थिताः अन्ये गणमान्यजनाः केन्द्रीय गृहमन्त्री अमितशाहः केन्द्रीय स्वास्थ्यमन्त्री तथा भाजपा दलस्य अध्यक्षः जेपी नड्डा केन्द्रीय मार्ग परिवहन मन्त्री तथा च वरिष्ठ भाजपा नेता नितिन गडकरी केन्द्रीय कृष्णांगार उत्खनन मन्त्री जे किशन रेड्डी केन्द्रीय मन्त्रिणः एनडीए सहयोगिनं च समेत्य चिराग पासवान रामदास अठावले अनुप्रिया पटेल महाराष्ट्र मुख्यमंत्री एकनाथ शिंदे भारतस्य पूर्व उपराष्ट्रपति एम वेंकैया नायडू भारतस्य पूर्व मुख्य न्यायाधीशः एनवी इति आसीत्। प्रधानमन्त्री नरेन्द्रमोदी G7 शिखर सम्मेलने सम्मिलितुं श्वः इटली प्रयास्यति। विदेश सचिवः विनय क्वात्रा नवदिल्ल्यां प्रावोचत् यत् शुक्रवासरे जायमाने सम्मेलने भारतम् एकेन विकासोन्मुख देशस्य रूपेण आमन्त्रितम् अस्ति। सः प्रोक्तवान् यत् इयं यात्रा भारताय वैश्विक दक्षिणक्षेत्राय च महत्वपूर्ण विषयेष् वैश्विक नेतृभिः सह दृढ सम्बन्ध निर्माणस्य अवसरं प्रदास्यति। शिखर सम्मेलने भारतस्य इयं एकादशतमः श्री मोदिनः च निरन्तरं पञ्चमः भागग्रहणावसरः भविष्यति। प्रधानमन्त्री अस्मिन् सत्रे सम्मिलितः भविष्यति। सम्मेलनम् अतिरिच्य श्रीमोदिनः G7 देशानां नेतृभिः सह द्विपक्षीयोपवेशनम् अपि सम्भाव्यते। श्रीमोदी इटली देशस्य प्रधानमन्त्रिणा जियोर्जिया मेलोनी इत्यनया सह उपवेशनं करिष्यति। विदेश सचिवः प्रावोचत् यत् भारतं स्विट्जरलैण्ड देशे आयोक्ष्यमाणे यूक्रेन शान्ति शिखर सम्मेलन उचित स्तरे सम्मिलितम् भविष्यति। अस्मिन् मासे स्विट्जरलैण्ड आयोक्ष्यमाणे सम्मेलने न्यूनातिन्यूनः 90 सम्मिलिताः भविष्यन्ति। प्रधानमन्त्री नरेन्द्रमोदी विदेशमन्त्री सुब्रह्मण्यम जयशंकरः च कुवैतनगरे दुरापन्ने भीषणे अग्निकाण्डे महद्दुःखं व्यक्तम कुरुताम। अस्यां दुर्घटनायां 40 जनाः कालग्रासभूताः अभवन् सहैव 50 जनाः व्रणिताः सन्ति। श्रीजयशंकरः आश्वासनं प्रदत्तवान् यत् कुवैते भारतीय दूतावासः प्रभावितेभ्यः सर्वेभ्यः जनेभ्यः साहाय्यं प्रदास्यति। अष्टादशतम्याः लोकसभायाः प्रथमसत्रम् अस्य मासस्य चतुर्विंशति दिनांकात् समारप्स्यते। अस्मिन् सत्रे नवनिर्वाचित सदस्यानां शपथग्रहणम् अध्यक्षनिर्वाचनम् राष्ट्रपत्याभिभाषणम् चर्चा च भविष्यति। अपरत्र राज्यसभायाः चतुष्षष्ठ्योत्तरद्विशततमस्य सत्रस्य समारम्भम् अपि अस्य मासस्य सप्तविंशति दिनांके भविष्यति। आगामि संसत्सत्रम् अग्रिममासस्य त्रिदिनांके भविष्यति। केन्द्रीय संसदीय प्रकरण मन्त्री किरेन रिजिजु प्रावोचत् यत् देशस्य नागरिकैः निर्णयः स्वीकृतः अस्ति, सहैव देशसेवायै कार्यनिष्पादनम् अस्माकं कर्तव्यमस्ति। श्री रिजिजु प्रोक्तवान् यत् चत्वारिंशदधिकैकशतकोटि भारतीयानाम् आकांक्षां पूरयितुं चर्चायै संसत्सदनम् एकः आदर्शमञ्चः वर्तते। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। निर्मला सीतारमण अद्य नवदिल्ल्यां केन्द्रीय वित्त मन्त्रालयस्य उद्योग कार्य मन्त्रालयस्य च कार्यभारग्रहणं कृतवती। तया केन्द्रीय वित्त उद्योग कार्यमन्त्रित्वेन पुनरवसरं प्रदातुं प्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रति कृतज्ञं प्रकटितम्। सा अकथयत् यत् श्रीमोदिना विगतेषु दशवर्षेषु सुदृढ़ नेतृत्वं विकासोन्मुख शासनं च प्रदत्तमस्ति, याभ्यां विभिन्न क्षेत्रेषु विभिन्न परिवर्तनानि अभवन्, अपि च भारतं सुदृढ़ार्थव्यवस्था संजातम्। श्रीमती सीतारमण प्रोक्तवती यत् सर्वकारः स्वकीय नागरिकेभ्यः सुगमजीवनं प्रदातुं पूर्णप्रतिबद्धमस्ति। सा प्रावोचत् यत् चतुर्दशोत्तरद्विसहस्रतमाब्दानन्तरं समारब्धानि विकासकार्याणि यथापूर्वं प्रवर्तिष्यन्ते, यैः आर्थिकव्यवस्थायां व्यापकार्थिक स्थैर्यं विकासः च प्रदास्यते। वित्तमन्त्रिणा राष्ट्रिय जनतान्त्रिक गन्थिबन्धनस्य सर्वकारस्य विकासोन्मुख संकल्पे नवीनोर्जया सह कार्यनिष्पादितुं प्रधानमन्त्रिणः विकसित भारतम् इति परिकल्पना पूरयितुं उत्तरदायिनीति निर्धारणं सुनिश्चेतुं च विभागः निर्दिष्टः। श्री नितिन गडकरी अपि अद्य मार्ग परिवहन राजमार्ग मन्त्रित्वेन पदभार अलंकरोत्। अस्मिन् अवसरे श्रीगडकरी मोदी सर्वकारस्य तृतीय कार्यकाले दायित्व निर्धारणाय प्रधानमन्त्रिणे आभारम् अभिव्यक्तमकरोत्। सः प्रोक्तवान् यत् श्रीमोदिनः दूरदर्शी नेतृत्वे भारतं विश्वस्तरीय आधुनिकाधारभूत निर्माणेन सुसज्जितं भविष्यति। राष्ट्रिय परीक्षा अभिकरणेन नीट यूजी परीक्षायाः परिणाम उद्घोषणायाः अनन्तरं सामान्यतः प्रक्षमाणानां प्रश्नानां एका प्रश्नावलिः प्रकाशिता अस्ति। अस्य मासस्य चतुर्थ दिनांके घोषितेषु नीट परीक्षा परिणामेषु कथित नियमितताम् अधिकृत्य एषा प्रश्नावली प्रकाशिता अस्ति। परीक्षार्थिभ्यः समय हानिने कृपांकं प्रदातुं शंका निवारण समित्याः भूमिकाम् अधिकृत्य अभिकरणेन प्रोक्तं यत् एका समितिः विनिर्मिता आसीत्, अपि च समित्या तथ्यात्मक सूचनानुसारं शंकासु विचारः कृतः। जम्मूकश्मीरस्य जम्मू संभागस्य कठुआ डोडा जनपदयोः रात्रौ जाते परस्पर संघर्षे सीआरपीएफ आरक्षिबलस्य एकः सैनिकः दिवंगतः, षट् सैनिकाः च व्रणिताः अभवन्। भारतीय सेना अद्य पैन इंडिया मोटरसाइकिल यात्रा इति अभियानं समारब्धम्। इयं यात्रा नवनवत्योत्तर नवदशतमे वर्षे जाते कारगिल युद्धे पाकिस्तानं विरुध्य भारतस्य विजयम् अधिकृत्य पञ्चविंशति वर्ष पूर्त्यावसरे प्रवर्तते। इति वार्ताः।